गणपतिगुं हवामहे कविं कवीनामुपम श्रवस्तमम् ज्येष्ठराजं ब्रह्मणा ब्रह्मणस्पत आन शृण्वन् नोति विस्सेदसादनम् प्रणो देवी सरस्वती वाजिनीवती धीना मवित्र्यवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरि ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतो तविषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातयिष शिवतमा शिवम् बभूवते धनुः शिवाशरव्याय तव तया नो रुद्रमृडया याते रुद्रशिवा तनोरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ता विचाकशी या विषम् गिरिशन्तस्ते विवर्षस्तवे शिवाङ्गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्चा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुं सुमना असत् अद्य वोचददिवक्ता प्रथमो दैव्यो विशक अयेगुश्च सर्वा जम्बयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रस्वमङ्गलः ये चेमागुम् रुद्रा अवितो दिक्षश्रुता सहस्रशो वैशागुम् हेडयीमहे असौ यो वसर्पतिनीलग्रीवो विलोहितः उतैनम् गोपा अर्षन्नर्षन्नुदहार्यः उतैनम् विश्वाभूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोराज्ञयोज्या याश्च ते हस्त इषव पराता भगवो वप अवतत्यदनुस्त्वगुम् सहस्राक्षशतेषु ते निषेर्यशल्यानामुखा शिवो न सुमना भव विर्यम् दनु कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशवहावरश्च निषङ्गतिः याते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मय परिभ्युज नमस्ते अस्त्वायुधाय न तताय दृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् मृणक्तु विश्वतः अथो य इषदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यबाहवे सेनान्ये दिशाञ्जवतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पदये नमो नमः सस्पिञ्जराय त्विषीमते पथीनां पदये नमो नमो बब्लुषाय विव्याधिनेन्नानाम् पदये नमो नमो हरिकेशायोपवेतिने पष्टानां पदये नमो नमो भवस्य हेत्ये जगतां पदये नमो नमो रुद्राय तथा विनेक्षेत्राणां पदये नमो नमः चौताय हन्त्याय वनानां पदये नमो नमो रोहिताय स्तवतये वृक्षाणां पदये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पदये नमो नमो भुवन्तये वारिवस्कृताय औषधीनां पदये नमो नम उच्चैर्घोषाय क्रन्दयते पद्धीनां पदये नमो नमः कृष्णवेता यथावते सत्त्वनां पदये नमः। नमः सहमानायन व्याधिना व्याधिनीनां पदये नमो नमः ककुभाय निषङ्गिणे स्तेनानां पदये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पदये नमो नमो वञ्चते परिवञ्चते स्थायूनां पदये नमो नमो निचेरवे परिचराय रण्यानां पदये नमो नमस्त्रिकाविभ्यो जिगागुं सद्व्योमश्नता पदये नमो नमो सिमद्भ्यो नक्रञ्चरद्भ्यः प्रकृन्तानां पदये नमो नम उष्णेषिणे गिरिचराय कुलुञ्चानां पदये नमो नम इषुमद्भ्योदन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छन्व्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमः तिष्ठद्भ्यो नापद्भ्यश्च वो नमो नमः समाभ्यः समापदिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपदिभ्यश्च वो नमः। नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुम्हतेभ्यश्च वो नमो नमो कृत्स्येभ्यो कृत्सपदिभ्यश्च वो नमो नमो भ्रातेभ्यो भ्रातमदिभ्यश्च वो नमो नमो गणेभ्यो गणपदिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपदिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्य कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नमः इषुकृभ्यो धन्वकृभ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नमः श्वभ्य श्रवणिभ्यश्च वो नमः
ॐ नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः नवर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिमिमिष्टाय च नमो मेदुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च नेत्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगन्याय च बुद्धेयाय च नमः सोभ्याय च व्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च कल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरोधिने च नमो भिल्मिणे च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रभृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमस्ते क्षेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च वत्याय च नमः काट्याय च नेप्याय च नमः शूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः ऐत्रेयाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुमाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेत्याय च कौल्याय च नमः भार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नम आधार्याय च लाध्याय च नम शस्प्याय च वेन्याय च नम सिकत्याय च प्रवाख्याय च नम हिरण्याय च प्रवत्याय च नम किगुंशिलाय च क्षयणाय च नम कवर्दिने च मुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नम ताट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नम फागुंसव्याय च रजस्याय च नम शुष्क्याय च नित्याय च नमो लोप्याय लोलप्याय च नम ऊर्व्याय च सूर्म्याय च नम पर्ण्याय च पर्णशद्याय च नमो भगुरमाणाय च विघ्नते च नम आखिदते च प्रखिदते च नमो भक्तिरिकेभ्यो देवानागुं हृदयेभ्यो नमो वीक्षेणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः ब्रापे अन्धसस्पते दरिद्रन्नीललोहिता एषाम् पुरुषाणामेषाम् पशूना माभिर्मा रोमो एषाम् किञ्चन भवत् या ते रुद्रशिवा तनु शिवा विश्वाः वेषजे शिवा रुद्रस्य वेषजे तया नो मृडजीवसे इमागुम् रुद्राय तव सेखवर्दिने क्षयद्वेराय प्रवरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रौतनो मयस्कृति क्षयद्वेराय नमसा विधेमते यच्छञ्चयोश्च मनुरायजे पिन तदश्यामतव रुद्रप्रणीतौ मानो महान्तमुतमानो अर्भकम् मानोक्षन्तमुतमानोक्षितम् मानो वदे पितरम् मोतमादरम् प्रियामानस्तनुवो रुद्ररेरिषः मानस्तोके तनये मान आयुषि मानो गोषु मानो अश्वेश्वरीरिषः नीरान्मानो रुद्रवामितो भरेर्हविष्मन्तो नमसा विधेमते आरात्ये गोघ्नौत पुरुषन्ने क्षयद्वेराय सुम् नमस्मेते अस्तु रक्षा च नो अरिच देव प्रौर्यथा च नः शर्म यच्च विवर्हाः स्तुति श्रुतम् गर्त सदम् विवानम् मृगन्नभीवमुपहत्तुमुग्रम् मृडाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवमन्तु सेनाः परिणो रुद्रस्य एतिर्मृणक्तु परि त्वे सस्य दुर्मतिरघायोः अवस्थिरामगवद्यस्तनुष्वमेवस्तोकाह्यतनयाय मृणया मेनुष्टम शिवतम शिवो न सुमना भव परमे वृक्ष आयुधन् निदाय कृत्यम् वसान आचर विनाकम् विप्रदागये विकिरिल विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयो न्यमस्मन्निवमन्तु ताः सहस्राणि सहस्रदा वाहुवोस्तव हेतयः ಸಾಮೀಶಾನೋ ಭಗವ ಪರಾಚೇನ ಮುಖಾಕೃತಿ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋಯ ರುದ್ರ ಅಧಿಭೂಮ್ಯಾ ತೇಷಾಂ ಸಹಸ್ರಯೋಜನೆ ವದನ್ ವಾಣಿ ತನ್ವಸಿ ಅಸ್ಮಿನ್ ಮಹತ್ಯರ್ಣವೇಂತರಿಕ್ಷೆ ಭವಾದಿ ನೈಲಗ್ರೇವಾಶತಿ ಕಂಡಾ ಸರ್ವಾದಃ ಕ್ಷಮಾಚರಾಃ ನೈಲಗ್ರೇವಾಶ್ರಿತಿ ಕಂಠಾದಿವಗು ರುದ್ರ ಉಮಶ್ರಿತಾಃ ಯೇ ವೃಕ್ಷೇಷು ಸಸ್ಪಿಂಜರ ನೈಲಗ್ರೇವಾ ವಿಲೋಯಿತಾಃ ಯೇ ಭೂತಾನಾಮಧಿಪತಯೋಭಿಷೇಕಾಸಕ್ತ ವರ್ಧಿನಃ ಯೇ ಅನ್ಯೇಷು ವಿವಿಧ್ಯಂತಿ ಮಾತ್ರೇಷು ವಿವತೋ ಜನಾನ ಯೇ ಪತಾಂ ಪತಿರಕ್ಷಯ ಐಲಮೃದಾಯ ವ್ಯುಧಃ ಯೇ ತೀರ್ಥಾನಿ ಪ್ರಚರಂತಿ ಶೃಕಾವಂತೋ ನಿಷಂಗಿಣಃ ಯೇತಾವಂತಶ್ಚ ಭೂಯಾಗುಂಸಶ್ಚ ದಿಶೋ ರುದ್ರಾವಿತಸ್ಥಿರೇ ತೇಷಾಂ ಸಹಸ್ರಯೋಜನೆ ವದನ್ ವಾಣಿ ತನ್ವಸಿ ನಮೋ ರುದ್ರೇಭ್ಯೋ ಯೇ ಪೃಥಿವ್ಯಾ ಯೇಂತರಿಕ್ಷೇ ದಿವ್ಯೇಷ ಮನ್ನಂ ಮಾತೋ ವರ್ಷ ವಿಷವಸ್ತೇಭ್ಯೋ ದಶ ಪ್ರಾಚೇರ್ದಶ ದಕ್ಷಿಣಾ ದಶ ಪ್ರತಿಚೇರ್ದಶೋ ದೇಚೇರ್ದಶೋರ್ನ್ವಾಸ್ತೇಭ್ಯೋ ನಮಸ್ತೆ ನೋ ಮೃಡಯಂತು ತೇಯಂ ಯಶ್ಮೋ ಯಶ್ಚ ನೋ ದ್ವೇಷಿತಂ ಭೋಜಂ ವೇದಧಾಮಿ ತ್ರಯಂಬಕಂ ಯಜಾಮಹೇ ಸುಗಂಧಿಂ ಪುಷ್ಟಿವರ್ಧನಂ ಉರ್ವಾರುಕಮಿವ ವಂದನಾ ನೃತ್ಯೋರ್ಮುಕ್ಷೇಯಮಾಮೃತಾತ್ ಯೋ ರುದ್ರೋ ಅಗ್ನವ್ಯೋ ಅಪ್ಸುಯ ಓಷಧೀಷು ಯೋ ರುದ್ರೋ ವಿಶ್ವಾ ಭುವನ ವಿವೇಶ ತಸ್ಮೈ ರುದ್ರಾಯ ನಮೋ ಅಸ್ತು ಏತೆ ಸಹಸ್ರಮಯುತಂ ಪಾಶ ಮೃತ್ಯೋರ್ಮತ್ಯಾಯ ಹಂತವೇ ತಾನ್ಯಜ್ಞಸ್ಯ ಮಾಯಯಾ ಸರ್ವಾನವಯಜಾಮಹೇ ಮೃತ್ಯವೇ ಸ್ವಾಹ ಮೃತ್ಯವೇ ಸ್ವಾಹ ಪ್ರಾಣಾನಾ ಗ್ರಂಥಿರಸಿ ರುದ್ರೋ ಮಾ ವಿಶಾಂತಕಃ ತೇನಾನೇನಾಪ್ಯಾಯಸ್ವ ನಮೋ ರುದ್ರಾಯ ವಿಷ್ಣವೇ ಮೃತ್ಯುರ್ಮೇ ಪಾಯಿ ತಮಷ್ಟುಯಸ್ವಸ್ವದನ್ ವಾಯು ವಿಶ್ವಸ್ಯ ಕ್ಷಯತಿ ಮೇಷಜಸ್ಯ ಯಕ್ಷ್ವಾ ಮಹೇಶೌ ಮನಚಾಯ ರುದ್ರಂ ನಮೋ ಭಿರ್ದೇವಮಸುರಂಧ್ರುವಸ್ಯ ಅಯಂ ಮೇ ಹಸ್ತೋ ಭಗವಾನ್ ಅಯಂ ಮೇ ಭಗವತ್ತರಃ ಅಯಂ ಮೇ ವಿಶ್ವವೇಶ ಜೋಯಗುಂ ಶಿವಾಭಿವರ್ಷನಃ ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಶಂಚ ಮೇ ಮಯಶ್ಚ ಮೇ ಪ್ರಿಯಂಚ ಮೇನು ಕಾಮಶ್ಚ ಮೇ ಕಾಮಶ್ಚ ಮೇ ಸೌಮನಸಶ್ಚ ಮೇ ಭದ್ರಂಚ ಮೇ ಶ್ರೇಯಶ್ಚ ಮೇ ಭಸ್ಯಶ್ಚ ಮೇ ಯಶಶ್ಚ ಮೇ ಭಗಶ್ಚ ಮೇ ದ್ರವಿಡಂಚ ಮೇ ಯಂತಾಚ ಮೇ ಧರ್ತಾಚ ಮೇ ಕ್ಷೇಮಶ್ಚ ಮೇ ಧೃತಿಶ್ಚ ಮೇ ವಿಶ್ವಂಚ ಮೇ ಮಹಶ್ಚ ಮೇ ಸಂವಿಚ್ಚ ಮೇ ಜ್ಞಾತ್ರಂಚ ಮೇ ಸೋಶ್ಚ ಮೇ ಪ್ರಸೋಶ್ಚ ಮೇ ಶ್ರೇರಂಚ ಮೇ ಲಯಶ್ಚ ಮೃತಂಚ ಮೇ ಮೃತಂಚ ಮೇ ಯಕ್ಷ್ಮಂಚ ಮೇ ನಾಮಯಚ್ಚ ಮೇ ಜೇವಾತುಶ್ಚ ಮೇ ದೀರ್ಘಾಯು ತ್ವಂಚ ಮೇ ನ ಮಿತ್ರಂಚ ಮೇ ಭಯಂಚ ಮೇ ಸುಗಂಚ ಮೇ ಶಯನಂಚ ಮೇ ಸೋಷಾಚ ಮೇ ಸುದಿನಂಚ ಮೇ ಓಂ ಶಾಂತಿ शांति शांति ओम अत्रिणात्वा कृमे हन्मे कण्वेन जमदग्नेन विश्वावसोर्ब्रह्मणा हतः कृमेणागुं राजा अप्येषागस्थपतिर्हतः अथो माथाथो पिता अथो स्थूरा अथो क्षुद्रा अथो कृष्णा अथो श्वेता अथो आशातिका हता श्वेताभिः सह सर्वे हता आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयो आददामि तथा हि तत् कण्ठन्वसे ॐ शान्ति शान्ति शान्तिः शन्नो मित्रश्यं वरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मा भवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारम् ॐ शान्ति 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 शिक्षां व्याख्यास्यामः वर्णस्वरः मात्रावलम् साम सन्तानः इत्युक्तः शिक्षाध्यायः सह नौ यशः सह नौ ब्रह्म वर्चसम् अथातः सगुम्भिताय उपनिषदम् व्याख्यास्यामः पञ्चस्वधिकरणेषु अधिलोकमधिज्योतिषमधिविद्यमधिप्रजमध्यात्मम् तामः सगुम्भिता इत्याचक्षते अथाधिलोकम् पृथिवीपूर्वरूपम् द्यौरुत्तररूपम् आकाशः सन्धिः वायुः सन्धारम् इत्यधिलोकम् अथाधिज्योतिषम् अग्निपूर्वरूपम् आदित्य उत्तररूपम् आपः सन्धिः वैद्युतः सन्धानम् इत्यधिज्योतिषम् अथाधिविद्यम् आचार्यपूर्वरूपम् अन्तेवास्युत्तररूपम् विद्या सन्धिः प्रवचनगुम् सन्धानम् इत्यधिविद्यम् अथाधिप्रजम् मातापूर्वरूपम् पितोत्तररूपम् प्रजा सन्धिः प्रजननगुम् सन्धानम् इत्यधिप्रजम् अथाध्यात्मम् अदराहनुपूर्वरूपम् उत्तराहनुरुत्तररूपम् वाक्सन्धिः जिह्वासन्धानम् इत्यध्यात्मम् इति मामः सगुम्भिताः यरेवमेतामः सगुम्हिता व्याख्याता वेदा सन्धीयते प्रजया पशुभिः ब्रह्मवच्चेनान्नाद्येन सुवर्गेण लोकेन यश्चन्दसा पृषभो विश्वरूपः छन्दोऽभ्योऽध्यमृता सम्भवोव समेन्द्रो मेधया स्पृणोतु अमृतस्य देवदारणो भूयासम् शरीरम् मे विचर्षणम् दिव्वा मे मधुमत्तमा कर्णाभ्या मोहि विश्रवम् ब्रह्मण कौशोऽसि मेधया पीतः श्रुतम् मे गोपाय आवहन्ति वितन्वाना कुर्वाणा चेरमात्मनः वासागुंसि मम गावश्च अन्नपाने च सर्वदा ततो मे श्रियमावह नोमशाम् पशुभिः सह स्वाहा आमायन्तु ब्रह्मचारिणः स्वाहा विमायन्तु ब्रह्मचारिणः स्वाहा प्रमायन्तु ब्रह्मचारिणः स्वाहा नमायन्तु ब्रह्मचारिणः स्वाहा शमायन्तु ब्रह्मचारिणः स्वाहा यशोजने सानि स्वाहा श्रेयान्वस्य शोचानि स्वाहा तम् त्वामगप्रविशानि स्वाहा समामगप्रविश स्वाहा तस्मिन् सहस्रशाखे निवनाहम् त्वयि मृजे स्वाहा यतामप्रवतायन्ते यथा मासा अहर्जरम् एवम् माम् ब्रह्मचारिणः धातरायन्तु सर्वतः स्वाहा प्रतिवेशोऽसि प्रमावाय प्रमापद्य स्वा भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः ताचामुह स्मैताञ्चतुर्थीम् माहाचमस्य प्रवेदयते मह इति तद्ब्रह्मा स आत्मा अङ्गान्यन्या देवताः भूरिति वा अयम् लोकः भुव इत्यन्तरिक्षम् सुवरित्यसौ लोकः मह इत्यादित्यः आदित्येन वा सर्वे लोका महीयन्ते भूरिति वा अग्निः भुव इति वायुः सुवरित्यादित्यः मह इति चन्द्रमाः चन्द्रमसा वाव सर्वाणि ज्योतिगुंषि महीयन्ते भूरिति वा ऋषः भुव इति सामानि सुवरिति यजोगुंषि मह इति ब्रह्मा ब्रह्मणा वाव सर्वे वेदा महीयन्ते भूरिति वै प्राणः भुव इत्यपानः सुवरिति व्यानः मह इत्यन्नम् अन्नेन वाव सर्वे प्राणा महीयन्ते तावा एतास्तदस्रश्चतुर्था चतस्रश्चतस्रो व्याहृतयः तायो वेदा स वेद ब्रह्मा सर्वे स्मै देव बलिमावहन्ति स य एषोऽन्तरहृदय आकाशः तस्मिन्नयम् पुरुषो मनोमयः अमृतो हि नन्मयः अन्तरेण तालुके य एष स्तन इवावलम्बते सेन्द्रयोनिः यत्नासौकेशाम् तो विवर्तते व्यमोह्य शीर्षकपाले भूरित्यग्नौ प्रतिष्ठते भुव इति वायौ सुवरित्या नित्ये मह इति ब्रह्मणि आप्नोति स्वाराज्यम् आप्नोति मनसस्पतिम् वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिः एतत्ततो भवति आकाशशरीरम् ब्रह्मा सत्यात्मप्राणारामम् मन आनन्दम् शान्तिसमृद्धममृतम् इति प्राचीनयोग्योपास्व पृथिव्यन्तरिक्षम् द्योर्दिशो वान्तरदिशाः अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि आप ओषधयो वनस्पतय आकाश आत्मा इत्यधिभूतम् अनाध्यात्मम् प्राणो व्यानोपान उदानः समानः चक्षुश्रोत्रम् मनो वाक्त्वक चर्ममागुंसग्नुस्नावास्थिमज्जा एतदधिविदाय ऋषिरवोचत् पाङ्क्तम् वा इदगुम् सर्वम् पाङ्क्ते नैव पाङ्क्तम् स्पृणोतीति ओमिति ब्रह्मा ओमितेदगुम् सर्वम् ओमित्येतदनुकृतिहश्च वा अप्योश्रावयेत्या श्रावयन्ति ओमिति सामानि गायन्ति ओगुं शोमिति शस्त्राणि शगुंसन्ति ओमित्यध्वर्युः प्रतिघरम् प्रतिगृणाति ओमिति ब्रह्मा प्रसौति ओमित्यग्निहोत्रमनुजानाति ओमिति ब्राह्मण प्रवक्षन्नाह ब्रह्मोपाप्नवानीति ब्रह्मैवोपाप्नोति ऋतम् च स्वाध्याय प्रवचने च सत्यम् च स्वाध्याय प्रवचने च तपश्च स्वाध्याय प्रवचने च दमश्च स्वाध्याय प्रवचने च शमश्च स्वाध्याय प्रवचने च अग्नयश्च स्वाध्याय प्रवचने च अग्निहोत्रम् च स्वाध्याय प्रवचने च अतिथयश्च स्वाध्याय प्रवचने च मानुषम् च स्वाध्याय प्रवचने च प्रजा च स्वाध्याय प्रवचने च प्रजनश्च स्वाध्याय प्रवचने च प्रजातिश्च स्वाध्याय प्रवचने च सत्यमिति सत्यवचाराथेतरः तव इति तपोनित्य पौरुषष्टिः स्वाध्याय प्रवचने एवेति न कौमोद्धल्यः तद्धितपस्तद्धितपः अहम् वृक्षस्यरेरिव कीर्तिपृष्टम् गिरेरिव ऊर्ध्वपवित्रो वाजिरेव स्वमृतमस्मि द्रविणगुंसवर्चसम् सुमेधा अमृतोक्षितः इति त्रिशङ्कोर्वेदानुवचनम् वेदमनोच्याचार्यो अन्ते वासिरमनुशास्ति सत्यम् वद धर्मम् चर स्वाध्यायान्मा प्रमदः आचार्याय प्रियम् धनमारुत्य प्रजातन्तम् मा व्यवच्छेत्से సత్యాన్న ప్రమదితవ్యం, ధర్మాన్న ప్రమదితవ్యం, కుశలాన్న ప్రమదితవ్యం, భూత్యేన ప్రమదితవ్యం, స్వాధ్యాయ ప్రవచనాభ్యాన్న ప్రమదితవ్యం, దేవపితృకార్యాభ్యాన్న ప్రమదితవ్యం, మాతృదేవో భవ, పితృదేవో భవ, ఆచార్యదేవో భవ, అతిథిదేవో భవ, యాన్యనవధ్యాని కర్మాణి తాని సేవితవ్యాని నో ఇతరాణి, యాన్యస్మాకం సుచరితాని తాని త్వయోపాస్యాని నో ఇతరాణి, ఏకే చాస్మచ్చేయాగుంసో బ్రాహ్మణాః తేషాం త్వయాసనేన ప్రశ్వసితవ్యం, శ్రద్ధయా ధేయం అశ్రద్ధయా ధేయం, శ్రేయా ధేయం హేయా ధేయం, ధేయా ధేయం సంవేదా ధేయం, అరయదితే కర్మ విచికిత్సా వా వృత్త విచికిత్సా వా స్యాత్, ఏతత్ర బ్రాహ్మణా సంవర్షిణః యుక్తా ఆయుక్తా అలోక్ష ధర్మకామా స్యుః, యథా తే తత్ర వర్తేరన్న తథా తత్ర వర్తేతా, అథామ్యాఖ్యాతేషు ఏతత్ర బ్రాహ్మణా సంవర్షిణః యుక్తా ఆయుక్తా అలోక్ష ధర్మకామా స్యుః, యథా తే తేషు వర్తేరన్న తథా తేషు వర్తేతాః, ఏష ఆదేశః ఏష ఉపదేశః ఏషా వేదోపనిషత్, ఏతదనుశాసనం ఏవముపాసితవ్యం ఏవముచైతదుపాస్యం, శన్నో మిత్రశ్యం వరుణః శన్నో భవత్వర్యమా శన్న ఇంద్రో బృహస్పతిః శన్నో విష్ణురుక్రమః, నమో బ్రహ్మణే నమస్తే వాయో త్వమేవ ప్రత్యక్షం బ్రహ్మాసి, త్వామేవ ప్రత్యక్షం బ్రహ్మావాదిశం ఋతమవాదిశం సత్యమవాదిశం, తన్మామావేత్ తద్వక్తారమావేత్ ఆవేమా ఆవేద్ వక్తారం. ఓం శాంతి శాంతి శాంతి, నకర్మణాన ప్రజయా ధనేన త్యాగేనైకేన మృతత్వమానశు, పరేణ నాకం నిహితం గుహాయా విభ్రాజతేతద్యతయో విశంతి, వేదాంత విజ్ఞాన సునిశ్చితార్థ సన్యాస యోగాధ్యతయ శుద్ధ సత్వాః, తే బ్రహ్మలోకే తు పరాంతకాలే పరామృతాత్ పరిముచ్యంతి సర్వే, నరం విపాపం పరమేష్ణభూతం యత్ పుండరీకం పురమద్య సద్గుస్తం, తత్రావిదరం గగనం విశోకస్తస్మిన్ యదంతస్తదువాసితవ్యం, యో వేదాదౌ స్వర ప్రోక్తో వేదాంతే స ప్రతిష్ఠితః, తస్య ప్రకృతిలీనస్య యః పరస్య మహేశ్వరః, స్వస్తి ప్రజాభ్యః పరిపాలయంతాం న్యాయేన మార్గేణ మహిషాః, గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్తలోకాః. sukhino bhavantu samasta lokah sukhino bhavantu samasta lokah sukhino bhavantu om shanti shanti shanti.